हजुर दर्शन
भाग्यवानी बाबु राम्ररी आइपुग्नु भयो नि।
हजुर राम्ररी पुगे। ऊ चाहिँ मेरो कलेजको बेस्ट फ्रेन्ड।
नमस्ते बाबुजू।
नमस्ते, आउनु न भित्रै।
हुन्छ बाबुजू।
अनि दादा त अफिस गइसक्नु भयो होला है?
उहाँ त बिहानै हो। हुन्छ तपाईँहरू फ्रेस हुँदै गर्नु न, म खाना तयार गर्दै गर्छु है।
हस् हस् बाबुजू।
ओए वाइफाई होला नि, पासवर्ड माग्न।
हैं त पनि एनटीसीको सस्तो डे प्याक छदैछ नि।
ए हो र,
एनटीसीको डे प्याक लिन *1415# डायल गर्न।
नेपाल टेलिकम, राष्ट्रको संचार।
हामी सार्वजनिक सेवा प्रसारण रेडियो नेपालबाट बोलिरहेका छौं। 6 बजे यहाँहरूले सुन्नुहुनेछ नेपालीमा समाचार। अब सुन्नुहोस् संस्कृतमा समाचार।
षड सप्ततितमस्य वार्षिकोत्सवस्य अवसरे रेडियो नेपालः सकल श्रोतृन् विज्ञापनदातृन् शुभेच्छुकांश्च प्रति हार्दम् आभारम् अभिव्यज्य आगामी दिनेषु स्वस्य प्रसारणम् इतोऽपि प्रभावकारी समावेशी वैविध्यपूर्णं च विधातुं प्रतिजानीते। एष रेडियो नेपालः। सम्प्रति समाचाराः श्रूयन्ताम्। प्रवाचक उपेन्द्र दाहालः। अद्य रेडियो नेपालः 67वं वर्षं प्रपूर्य 77वं वर्षं प्रविष्टोऽस्ति। एतदवसरे अद्य सिंहप्रासादवर्तिनी रेडियो नेपालस्य परिसरे विशेष समारोह समायोजितोऽस्ति। समारोह संचार सूचना प्रविधि मन्त्रिणः डाक्टर विक्रम तिमल सिन्हाविदस्य प्रामुखातिथ्ये आयोज्यमानो वर्तते। रेडियो नेपालः 7वं 2000 विक्रम वर्षे संस्थापितोऽस्ति। स्थापना कालादेव अनया संस्थया जनतां प्रति उत्तरदायिनो भूत्वा स्वस्य प्रसारणम् उत्तरोत्तरं प्रभावकारी विधीयमानं वर्तते। संघीय संसदः प्रथमम् अधिवेशनम् ह्यस्तनदिवसात् प्रारब्धमस्ति। ह्यस्तनोपवेशे ज्येष्ठतम सदस्येन अर्जुन नरसिंह केसिना संघीय संसदः आह्वान सम्बद्धं राष्ट्रपतेः पत्रं पठित्वा श्रावितमासीत्। प्रथमोपवेशं सम्बोधयन्तः प्रतिनिधिसभायां प्रतिनिधित्वं कुर्वतां विभिन्नानां दलानां शीर्षनेतारः सुशासनं विकासं समृद्धिं च केन्द्रबिन्दुं निर्माय संसदा अग्रे वर्धनीयमिति अभासन्त। संसदः अधिवेशनं सम्बोधयन् प्रतिनिधिसभायाः आध्यक्ष्यं कुर्वाणः ज्येष्ठतम सदस्य अर्जुन नरसिंह केसी राजनीतिक स्थिरता, सुशासनं, विदेश शासनस्थापनञ्चेत्यादि विषयेषु जनतायाः आकांक्षां पूरयितुं प्रतिनिधिसभा समर्था भविष्यतीति विश्वासं प्राकटयत्। प्रतिनिधिसभाया प्रथमोपवेशं सम्बोधयन् राष्ट्रिय स्वतन्त्र दलस्य सभापतिः रवि लामिछाने जनतया प्रदत्तस्य आदेशस्य दायित्वं कार्येणैव पूरयिष्यते इति धारणामभिव्यनक्। नेपाली जनतया सिंहप्रासादं सञ्चालयितुम् आदेश न प्रदत्तः, अपितु सिंहप्रासादं परिवर्तयितुम् आदेश प्रदत्तोऽस्ति इति चर्चयन् सभापतिः लामिछाने तदनुरूपेणैव सर्वकारेण कार्यं प्रारब्धमस्तीति उक्तवान्। सभायां नेपाली कांग्रेस दलस्य सांसद भीष्मराज आङदेम्बे सहमत्या सहकार्येण सुशासनेन च नागरिकेषु आशाया विश्वासस्य च जागरणं विधेयमिति चर्चयन् गतस्य भाद्रमासस्य 23-24 दिवसयोः सम्भूतस्य जेएनजी आन्दोलनस्य विषये निष्पक्षम् अनुसन्धानं विधाय सिंहप्रासाद संसद भवन सर्वोच्च न्यायालय सदस्यानां सम्पदां क्षतेः यथार्थ विवरणं सार्वजनिकर्तुमपि याचना विहितवान्। तथैव नेकपा एमाले दलस्य संसदीय दलस्य नेता रामबहादुर थापा गतस्य भाद्रमासस्य 23-24 दिवसयोः जेएनजी आन्दोलनस्य क्रमे सम्भूतायाः भौतिक क्षतेर्विषये निष्पक्षम् अनुसन्धानं कर्तुं सर्वकारस्य समक्षम् अयाचत। नेपाली कम्युनिष्ट दलस्य नेता वर्षमान पुन स्वस्य दलेन प्रतिनिधिसभायां सर्वकारस्य उचित कार्येषु सहयोग करिष्यते चेत् जनविरोधी कार्येषु प्रतिपक्षत्वेन भूमिका निर्वक्ष्यते इति उक्तवान्। सभायाः उपवेशे श्रम संस्कृति दलस्य अध्यक्ष हर्कराज राई, शिक्षाम् उत्पादनेन सह संयोज्य अध्ययनाध्यापनस्य व्यवस्था कार्य प्राकृतिक स्रोत साधना नाम सदुपयोगम कर्तुम उपयुक्त विधि निर्मातव्यश्चेति धारणाम प्राकटयत। तथैव राष्ट्रिय प्रजातन्त्र दलस्य संसदीय दलस्य नेता ज्ञानेन्द्र शाही जनताम प्रति उत्तरदायित्वेन कार्यम कर्तुम विदेश शासनम क्रियान्वेतुम सर्वकारस्य ध्यानाकर्षणम विहितवान। उपवेशे स्वतन्त्र सांसदः महावीर पुन शिक्षा क्षेत्रम् राजनीतितः मुक्तम् विधाय शैक्षिक गुणस्तरस्य सुधारम् कर्तुमपि विधिः निर्मातव्यो भवतीति धारणाम् अभिव्यनक। प्रतिनिधि सभाया ह्यस्तनोपवेशे गृहमन्त्री सुदन गुरुङ अध्यादेशत्रयम् प्रास्तौत। सभायाः प्रथमोपवेशे नेतृणाम् सम्बोधनस्य अनन्तरम् मन्त्री गुरुङ एतत् विक्रमवर्षीयान् नागरिकता सम्बद्ध प्रथम संशोधनाध्यादेशम् प्रतिनिधिसभा सदस्य निर्वाचन प्रथम संशोधनाध्यादेशम् नेपाल विशेष सेवा द्वितीय संशोधनाध्यादेशम् च प्रास्तौत। अध्यादेशत्रयम् प्रस्तुवन् गृहमन्त्री गुरुङ राष्ट्रियानुसन्धान विभागम् प्रधानमन्त्री कार्यालयात् पुनः गृहमन्त्रालयान्तर्गतम् स्थापयितुम् नेपाल विशेष सेवा द्वितीय संशोधनाध्यादेशः आनीतोऽस्तीति स्पष्टीकृतवान्। प्रतिनिधिसभायाः अपरोपवेश परस्पर रविवासरे प्रातः एकादशवादने वस्ता। राष्ट्रिय सभायाः अधिवेशनस्य शुभारम्भस्य अवसरे सांसदाः देशस्य स्वतन्त्रताम् सार्वभौमिकताम् समावेशिताम् जनहितम् च सुनिश्चेतुम् त्रयाणामेव स्तराणाम् सर्वकारैः सह समन्वयम् विधाय राष्ट्रियैकताम् सुदृढाम् विधातुम् बलम् दत्तवन्तः। सांसदाः सर्वकारस्य शतसूत्रात्मकस्य सुशासन मार्गचित्र कार्यक्रमस्य अन्तर्गताः जनानाम् जीवनेन सह सम्बद्धाः विषयाः शिक्षायाम् स्वास्थ्ये वृत्त्युपार्जने कूटनीतौ कृषिक्षेत्रे च विद्यमानानाम् अव्यवस्थानाम् दीर्घकालिकरूपेण प्रभावकारिरूपेण च समाधानम् कर्तुम् सर्वकारेण केन्द्रितेन भवितव्यमिति उक्तवन्तः। एवमेव उपवेशे राष्ट्रियसभायाः उपाध्यक्ष पदस्य निर्वाचनाय अस्यैव चैत्रमासस्य त्रयोविंशे दिवसे सोमवासरे समय निर्धारितोऽस्तीति चर्चयन् सभायाः अध्यक्ष नारायण प्रसाद दाहाल संघीय संसद महासचिवम् पद्म प्रसाद पाण्डेयम् राष्ट्रियसभायाः उपाध्यक्ष पदस्य निर्वाचन कार्यक्रम सम्बद्धाम् सूचनाम् प्रकाशयितुम् निरदिशत्। राष्ट्रियसभायाः अपरोपवेशः परश्वः रविवासरे वस्ता। काष्ठमण्डप जनपद न्यायालयेन पूर्व प्रधानमन्त्रिणम् नेकपा एमाले दलस्य अध्यक्षम् च केपी शर्मा ओलीनम् पूर्व गृहमन्त्रिणम् रमेश लेखकञ्च अतिरिक्त दिनद्वयम् यावत् कारागारे स्थापयितुम् अनुमति प्रदत्तास्ति। इतः पूर्वम् गत शनिश्चरवासरे निगृहितम् नेतृद्वयम् पञ्च दिनानि यावत् कारागारे एव संस्थाप्य अनुसन्धानम् विधातुम् गत रविवासरे न्यायालयेन प्रहरिणे अनुमतिः प्रदत्ता आसीत्। गतस्य भाद्रमासस्य त्रयोविंश दिवसे जेएनजीयूनाम् आन्दोलनस्य क्रमे प्रहरिणः गोलिकया सम्भूतम् यूनाम् मृत्युम् प्रति सर्वकार प्रमुख रूपेण तात्कालिक प्रधानमन्त्री केपी शर्मा ओली तात्कालिक गृहमन्त्री रमेश लेखकश्च दोषणौस्त इति उच्चस्तरीयानुसन्धान आयोगस्य प्रतिवेदनस्य आधारेण प्रहरिणा इमौ द्वौ अपि नेतारौ निगृहीतौ स्तः।